एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। त्रिसप्ततितमः राष्ट्रिय प्रजातन्त्र दिवसः अद्य आराष्ट्रम् विविधैः कार्यक्रमैः सह समायोज्यमानो वर्तते। सप्तोत्तर द्विसहस्रतम विक्रमाब्दस्य प्राजातान्त्रिकान्दोलनस्य परिणामस्वरूपेण चतुरुत्तर शतवर्षीयम् दीर्घकालिकम् पारिवारिक राणाशासनम् समाप्य प्राजातान्त्रिक व्यवस्थायाः प्रारम्भकारिण्याः ऐतिहासिक घोषणायाः स्मृतिम् सततम् चिरम् जीवयितुम् प्रतिवर्षम् फाल्गुनस्य सप्तमे दिवसे राष्ट्रिय प्रजातन्त्र दिवसः समायोज्यमानो वर्तते। राष्ट्रिय प्रजातन्त्र दिवसस्य अवसरे शुभकामना सन्देशं ददति राष्ट्रपतिः विद्यादेवी भण्डारी। जनता एव राज्यशक्तेः सम्पूर्ण स्रोतोस्थिति मान्यताम् आधृत्य लोकतान्त्रिका चरणे जीवन पद्धतौ निर्मितायं सत्यां प्रजातन्त्र दिवसस्य सार्थकतायाः पुष्टि भविष्यतीति उल्लिखति। राष्ट्रपतिना भण्डारिणा सन्देशे वर्तमान शासन व्यवस्थया दशकैः व्यक्ताय हुतात्मनाम् स्वप्नाय जनतायाः आकांक्षायै च मूर्तरूपम् दातुम् समर्थया भाव्यमिति उल्लिखितम् वर्तते। अवसरेऽस्मिन् शुभकामनाम् अभिव्यज्यमानः उपराष्ट्रपतिः नन्दबहादुर पुन प्रजातन्त्रस्य प्राप्तेः तदनन्तरम् विहितानाम् क्रान्तीनाम् आन्दोलनानाम् च उपलब्धीनाम् रक्षायै सर्वान् पक्षान् अनुरुणद्धि। प्रजातन्त्र दिवसेन देशस्य भौगोलिकीम् अखण्डताम् राष्ट्रिय स्वाधीनताम् नेपाली जनतायाः स्वतन्त्रताम् च इतोऽपि सुदृढीकृत्य देशम् विकास समृद्ध्योः मार्गे अग्रे वर्धयितुम् प्रेरणा प्रदीयते इति उपराष्ट्रपतिः पुन अपेक्षते। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड स्वस्य शुभकामना सन्देशे संविधानस्य प्रगतिशील क्रियान्वयनस्य माध्यमेन समाजवादोन्मुख राज्यस्य आधारशिलायाः निर्माणम् कार्यभारोऽस्तीति उल्लिखति। प्रधानमन्त्रिणा प्रचण्डेन सन्देशे ऐतिहासिक क्रान्तेः आन्दोलनस्य जनसंघर्षस्य च बलेन प्राप्तानाम् उपलब्धीनाम् संरक्षण पुरस्सरम् अतिरिक्तोपलब्धये निरन्तरम् क्रियाशिला भवितुम् बलम् दत्तम् वर्तते। प्रधानमन्त्री प्रचण्डः सन्देशे उल्लिखति नेपाली जनतायाः त्याग तपस्या बलिदानानाम् आधारशिलायाम् स्थापितेन प्रजातन्त्रेण आत्मानम् परिष्कृत्य परिमार्ज्य च संघीय लोकतान्त्रिक गणतन्त्रस्य गौरवपूर्ण परिस्थितिम् यावत् प्राप्तम् वर्तते। सभामुखेन देवराज घिमिरे विदेन प्रदत्ते सन्देशे राष्ट्रस्य पुरतो द्रुत विकासस्य अग्रे वर्धनाय समाह्वयो स्थिति उल्लिखितम् वर्तते। नेपाली कांग्रेस दलस्य सभापतिना पूर्व प्रधानमन्त्रिणा च शेरबहादुर देवाभिधेन प्रदत्ते सन्देशे सप्तोत्तर द्विसहस्रतम वैक्रमाब्दस्य जनक्रान्त्या न केवलम् राजनीतिकस्य अपितु आर्थिक सामाजिक सांस्कृतिक शैक्षिक प्रवृत्तिषु सर्वेषु क्षेत्रेषु अपि अग्रगामिनस्य च परिवर्तनस्य मार्ग उद्घाट तितः इत्युल्लिखितम् वर्तते। असौ सन्देशे फाल्गुनस्य सप्तम दिवस कांग्रेस दलस्य नेतृत्वे नेपालस्य आधुनिकेतिहास प्रारभणस्य गौरवपूर्ण दिवसोऽस्तीति वर्णयन् एतदवसरे सर्वेभ्यो नेपालीभ्य शुभकामनाम् व्यनक्ति। नेकपा एमाले दलाध्यक्षेण केपी शर्मा ओलीना प्रदत्ते शुभकामना सन्देशे राष्ट्रस्य समृद्धये जनतायाः सुखप्राप्तेः राष्ट्रियाकांक्षायाः पूरणाय च एकीभूय योगदानं विधातुम् आहूतमस्ति। अध्यक्ष ओली वदति नेपाली जनतया एकताबद्धतया विहितात् संघर्षात् पारिवारिक राणाशासनस्य अन्तिमम् दिनम् नेपालस्य इतिहासे उज्ज्वल नूतन युगस्य आरम्भविन्दोः रूपेण स्थापितम् वर्तते। गण्डकी प्रदेशस्य प्रदेश प्रमुखेण पृथ्वीमान गुरूङ इत्यनेन प्रदत्ते शुभकामना सन्देशे स्थिर शान्ति सुशासन विकास समृद्धिनाम् राष्ट्रिय लक्ष्यमधिगन्तुम् प्रजातन्त्रम् जीवन पद्धति सम्पादनीयेति उल्लिखितम् वर्तते। महाशिवरात्र्याः अवसरे राष्ट्रपतिः विद्यादेवी भण्डारी ह पशुपतिनाथ मन्दिरे पूजाराधने दर्शनम् च व्यददात्। पूजाराधनयोः अनन्तरम् पशुपतिनाथ मन्दिरस्य मूलार्चकाद् गणेश भट्टाद् राष्ट्रपतिः भण्डारी प्रसादम् अगृह्णात्। राष्ट्रपतिम् भण्डारिणम् पशुपतिनाथ मन्दिर प्राङ्गणे पशुपति क्षेत्र विकास कोष संचालक परिषदः अध्यक्षश्च संस्कृति पर्यटन नागरिकोड्डयन मन्त्री सुदन किराँती कोषस्य सदस्य सचिव डाक्टर मिलन कुमार थापा कोषाध्यक्ष नारायण प्रसाद सुवेदी परिषद सदस्या कार्यकारी निर्देशकेन सहिताः कर्मचारिणश्च अभ्यर्थयन्। राष्ट्रपति विद्यादेवी भण्डारी महाशिवरात्रे षष्ठोत्तर द्विशततम सेना दिवसस्य च अवसरे नेपाली सेनाया टुडी खेलवर्तिनी सैनिक मञ्चे ह्य आयोजिते समारोहे सहभागिनी अभवत। तदवसरे राष्ट्रपति भण्डारी तत्र स्थिते सैनिक स्मारके पुष्पहारम समर्प्य श्रद्धांजलि अर्पणेन सहैव नेपाली सेनाया प्रदत्तम सैन्याभिवादन वादनम अगृह्णात्। समारोहे राष्ट्रपतिना भण्डारिणा नेपाली सेनाया सैनिक जनसम्पर्क सूचना निर्देशनालयेन प्रकाशिता एतद् विक्रम वर्षीया सिपाही नाम्नी पत्रिका नेपाली सेनाया इतिहास नाम पुस्तकञ्च लोकार्पिते आस्ताम। तदवसरे भण्डारी सेनान्यौ जगन्नाथ दनाई टेमुम टेक बहादुर कार्किणञ्च सपुरस्कारम सममानयत। समारोहे उपराष्ट्रपति नन्दबहादुर पुन, प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड, कार्यवाहक प्रधान न्यायाधीश हरिकृष्ण कार्की, सभामुख देवराज घिमिरे च उपस्थिता आसन्। एवमेव मन्त्रिण, सांसद, सांवैधानिक निकायानां प्रमुखा, पदाधिकारिणश्च, नेपाल सर्वकारस्य उच्चपदस्था अधिकारिण, नेपालस्थितानां कूटनीतिक नियोगानां प्रमुखाः प्रतिनिधयश्च, समाजे लब्धप्रतिष्ठाः महानुभावाश्च शिवरात्रौ आयोजितं कार्यक्रमं द्रष्टुं टुडीखेलस्थानं प्राप्ताः आसन्। समारोहे भारतीय सेनायाः पञ्च पूर्व प्रमुखाः अतिथिरूपेण सहभागिनः आसन्। जनता समाजवादी दल नेपालस्य अध्यक्षस्य उपेन्द्र यादवस्य, नेपाली कांग्रेस दलस्य वरिष्ठ नेतु रामचन्द्र पौडेलस्य च मध्यः राष्ट्रपतये सहयोक्तुम् अध्यक्षम् यादवम् अन्वरुणत्। अध्यक्षः यादवः उपराष्ट्रपतेर् विषये अभिरुचिम् प्रादर्शयत्। राष्ट्रपतेः निर्वाचनस्य विधानाधिवेशनस्य पूर्वकार्यस्य च कार्यसूचीम् विमृष्टुम् जसपा दलेन अद्य कार्यकारी समितेः उपवेशः आकारितो वर्तते। दाहितानां रोगणानां जनानां कृते उपचाराय काष्ठमण्डपस्य वीरचिकित्सालये अग्निदाहनोपचारकक्ष सञ्चालयिष्यते। वीरचिकित्सालयस्य नवनियुक्तः कार्यकारी निर्देशकः डा सन्तोष पौडेलः मासत्रयस्य अभ्यन्तरे दाहनोपचारकक्षेण सह सघनोपचारकक्ष सञ्चालयिष्येते इति अबोधयत्। द्वासप्तत्यधिकद्विशततम वैक्रमादस्य भूकम्पेन कक्षस्थ भवनस्य भञ्जनमनु शिवेयं पीता आसीत् इति समाचारः।